सप्तम मंत्र का शांकर भाष्य। यस्मिन् काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनादात्मैव भूत आत्मैव संवृत्तः परमार्थवस्तु विजानतः तत्र तस्मिन् काले तत्रात्मनि वा को मोहः कः शोकः शोकश्च मोहश्च कामकर्मबीजम् अजानतो भवति न त्वास्मैकत्वं विशुद्धं गणनोपम पश्यतः को मोहः कः शोक इति शोकमोहयोर्विद्याकार्ययोराच्छेपेण असम्भवप्रदर्शनात् सकारणस्य संसारस्यात्यन्तमेवोच्छेदः प्रदर्शितो भवति।